गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन्नोति विस्सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते घेरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनुरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते विभर्षस्तवे शिवाङ्गिरित्रताम् कुरुमाहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावधामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुवना असत् अद्य ओचददि वक्ता प्रथमो दैव्यो विशक अहीकृश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रे भो विलोहितः उतैनम् गोपा अरुषन्नरुषन्नदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोर्च याश्च देहस्त इषवः पराता भगवो भव अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्यशल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निशम् गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तताय धृष्णवे उमाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाञ्चपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनाम् पदये नमो नमः सस्पिञ्जराय त्विषीमते पथीनाम् पदये नमो नमो बब्लुषाय विव्याधिनेन्द्रानाम् पदये नमो नमो हरिकेशायोपमेतिने पुष्टानाम् पदये नमो नमो भवस्य हेत्यै जगताम् पदये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पदये नमो नमः सूताय हन्त्याय वनानाम् पदये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पदये नमो नम कृष्णवेताय धावते सत्त्वनाम् पदये नमः नमः सहमानाय निर्व्याधिना व्याधिनीनाम् पदये नमो नमः ककुभाय निषङ्गिणे स्त्रेणानाम् पदये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमो नमः श्रृगाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पदये नमो नमो सिमद्भ्यो नक्रं चरद्भ्यः प्रकृन्तानाम् पदये नमो नम उष्णेषिणे गिरिचराय कुलुञ्जानाम् पदये नमो नम इषु मद्भ्यो धन्वावि भ्यश्च मो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च मो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च मो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च मो नमो नम आसीनेभ्यश्च शयानेभ्यश्च मो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च मो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च मो नमो नमः सभाभ्यः सभापतिभ्यश्च मो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च मो नमः नमः व्याधिनेभ्यो विविद्यन्तेभ्यश्च मो नमो नम उगणाभ्यस्त्रिगंहतेभ्यश्च मो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च मो नमो नमो भ्रातेभ्यो व्रातपतिभ्यश्च मो नमो नमो गणेभ्यो गणपतिभ्यश्च मो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च मो नमो नमो महद्भ्यः चिल्लकेभ्यश्च मो नमो नमो रतिभ्यो रतेभ्यश्च मो नमो नमो रतेभ्यो रथपतिभ्यो भ्यस्य वो नमो नमस्सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रभ्यः संग्रहीतृभ्यश्च वो नमो नमस्तक्षद्योरथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्वारेभ्यश्च वो नमो नमः पुञ्जष्टेभ्यो निशालेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वरिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतदन्वने च नमो गिरिशाय च शिविष्टाय च नमो मीनुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च समृद्ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे च जिराय च नमः शीघ्रियाय च शेभ्याय च नमः ॐम्याय च वस्वन्याय च नमः श्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च पुत्न्याय च नमः सौभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय च अवबिन्दते च नमो वल्मिने च वरोधिने च नमो मिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हरण्याय च नमो धृष्णवे च प्रमृषाय च नमो द्रोताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमस्ते क्षेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः शक्त्याय च वत्याय च नमः कात्याय च नेप्याय च नमः चोध्याय च सरस्याय च नमो नाध्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वर्षाय च नमो मेध्याय च विद्युत्याय च नमः नेत्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे च नीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेऽर्थ्याय च कौल्याय च नमः भार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः षष्ट्याय च वेन्याय च नमः सिकत्याय च प्रवाह्याय च नम हिरण्याय च प्रमथ्याय च नमः केगुं शिराय च क्षयणाय च नमः कवण्डिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च रित्याय च नमो लोप्याय चोलप्याय च नमः ओम्याय च शूर्म्याय च नमः पर्ण्याय च पर्णशध्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धसस्वते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मानोम एषाम् किञ्चनाममत् या ते रुद्रशिवा तनु शिवा विश्वाभेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुं रुद्राय तव से कवर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्रवसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृत् क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्च मनुराय जे पिता तदश्यामतवरुद्रः प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानवुक्षन्तमुतमानवुक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोघ्न उत पुरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अजि च देव मौह्यदा च न शर्म यच्च द्विवराः स्तुतिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य एतर्वृणक्त्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवद्भ्यस्तनुश्रमेभस्तोकायतनयाय मृणया ವೇಣುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ಮೇದಾಯ ಕೃತ್ಯಂಬಸಾನ ಆಚರ ವಿನಾ ಕಂಬೆ ಪ್ರದಾಗಯೇ ವಿಕಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗು ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂಚುತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೇನ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ ವಾನಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೆ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿಕಂಡಾ ಶರ್ವಾ ಅದಕ್ಷಮಾಚರಾ ನೀಲಗ್ರೀವಾಶಿತಿಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾ ಯೇ ವೃಕ್ಷೇಷು ಸಸ್ಮಿನ್ ಚರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ತವರ್ಧಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಮಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ ಯೇ ಪಥಾಂ ಪತಿರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತಿ ಸೃಕಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶು ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ ವಾನಿ ತನ್ಮಸಿ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ದಿವ್ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷವಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣ ದಶ ಪ್ರತಿಚೇರ್ದಶೋ ದೇಚೇರ್ದಶೋದ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಣಯಂತು ತೇಯಂ ನಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ಭೇದಧಾರಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಅರ್ವಾರುಕಮಿವ ವಂದನಾ ನೃತ್ಯೋರ್ಮುಕ್ಷೀಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸುಯ ಔಷಧೇಶಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನಾ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋರ್ಮತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹೀತಮಸ್ತ್ವಯಶ್ಚ ಶುಶ್ರುತನ್ ವಾಯು ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ವೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭರ್ದೇವಮಸುರಂ ಧುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರ ಅಯಂ ಮೇ ವಿಶ್ವಮೇಶ ಯೋಯಗುಂ ಶಿವಾಭಿಮರ್ಶನಃ ಓಂ ಶಾಂತಿ 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 ಸಜೋಷಸೇಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಜೇಭಿರಾಗತಂ ವಾಜಸ್ಯ ಮೇ ಪ್ರಸವಸ್ಯ మే ప్రగతిశ్చ మే ప్రసిద్ధిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే శుశ్చ మే చిత్తం చ మాధీతం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మఆయుశ్చ మే జరా చ మఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాణి చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జైష్ట్యం చ మాధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మే మహశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రథిమా చ మే వష్మా చ మే ద్రాగుర్యా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపదం చ మరుద్ధం చ మరుద్ధిశ్చ మే కృప్తం చ మే కృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శరం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మృతం చ మే మృతం చ మే లక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్జ మే సూర్త చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధుర మే సగ్ధిశ్చ మే సపీతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మౌద్ధిజ్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే నం చ మే క్షుశ్చ మే బ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిరాశ్చ మే ముద్గాశ్చ మే ఖల్వా మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్వాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మ ఆపశ్చ మే విరుధశ్చ ಮೋಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟ ಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟ ಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ರೇಣೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂದ್ರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಶುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇದಾಭ್ಯಶ್ಚ ಮೇಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಶುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಆಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂಥೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ ವೈಶ್ವಾನರಶ್ಚ ಮರುದಗ್ರಹಶ್ಚ ಮೇತಿ ಗ್ರಾಹ್ಯಶ್ಚ ಮ ಐಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುದ್ವತೀಯಶ್ಚ ಮೇ ಮಾಹೇಂದ್ರಶ್ಚ ಮ ಆದಿತ್ಯಶ್ಚ ಮೇ ಸಾವಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಣಶ್ಚ ಮೇ ಪಾತ್ನೀವತಶ್ಚ ಮೇ ಹಾರ್ಯೋಜನಶ್ಚ ಮೇ ಇದ್ಮಶ್ಚ ಮೇ ಬರ್ಹಿಶ್ಚ ಮೇ ವೇದಿಶ್ಚ ಮೇ ಧಿಷ್ಣಿರಾಶ್ಚ ಮೇ ಸೃಜಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾನಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮ ಉಪರವಾಶ್ಚ ಮೇ ಧಿಷವನೆ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೂತವೃಚ್ಛ ಮ ಆಧವಣೀಯಶ್ಚ ಮ ಆಗ್ನೇಂದ್ರಂ ಚ ಮೇ ಹವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಚದಾಶ್ಚ ಮೇ ವೃತಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಘರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ಧಿತಿಶ್ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ವರಿ ರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಚ್ಚ ಮೇ ಸಾಮ ಚ ಮೇ ಸ್ತೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮ ಋತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರೋರ್ವೃಷ್ಟ್ಯಾ ಬೃಹದ್ರತಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಚ ಮೇ ದಿತ್ಯೋಹಿ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಚ ಮೇ ತುರ್ಯೋಹಿ ಚ ಮೇ ಪಷ್ಟವಾಚ್ಚ ಮೇ ಪಷ್ಟೋಹಿ ಚ ಮ ಉಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮೃಷಭಶ್ಚ ಮೇ वेहच्च मे नड्वाञ्च मे धेनुस्य महायुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताघुश्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे ष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवोर्मनुर्यज्ञने बृहस्पतिरुक्था मदानिशगुंशिषद्विश्वे देव सूक्तवाच पृथिवीमातर्मा माहिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाच मुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अत्रिनात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेणागुङ्ग्राया अप्येषागुस्थपतिर्हतः अथो माताथो पिता अथो सूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्याविशो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मसि ॐ शान्ति शान्ति शान्तिः हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मी जातवेदो मावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देहम् कामश्वम् पुरुषानहम् अश्वपूर्वारथमध्याम् हस्तिनारप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीमा देवे जुषताम् काम सोस्मिताम् हिरण्यप्राकारमात्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवचुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायास्य बाह्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिरासः प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वानिर्णुद मे गृहात् गन्धद्वाराम् दुरादर्शाम् नित्यपुष्टाम् करीषिणीम् ईश्वरीकुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहे पशूनाम् रूपमन्नस्य मयि श्रेश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दमा श्रियम् वासय मे कुले मातरम् पद्ममालिने आपश्यजन्त्य स्निग्धानि चिक्ले तव समे गृहे निशदेवे मातरम् श्रियम् वासय मे कुले आद्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः आद्राम् यःकरिणीम् यष्टिम् सुवर्णाम् हेम मालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावः ता महावह जातवेदो लक्ष्मीमनवगामिनी यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान् विन्देहम् पुरुषानहम् यशुचि प्रयतो भूत्वा जुहुया राज्यमन्वहम् श्रियः पञ्चदशच्चम् च श्रीकामः सततम् जपे पद्मानने पद्मगुरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षि येन सौख्यम् लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनम् मे जुषदाम् देवि सर्वकामाश्चरे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरतेयसोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मल्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो नाशुभामते भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसूक्तम् जपेत् सदा स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिन्महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति